एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रपतिः रामचन्द्र पौडेलः जापान देशस्य औपचारिक भ्रमणाय तत्र प्रस्थितवान् अस्ति। नेपाल जापान देशयो कौटनीतिक सम्बन्ध स्थापनायाः सप्ततेः वर्षाणाम् प्राप्तेः अवसरे जापान सर्वकारस्य निमन्त्रणायाम् राष्ट्रपति पौडेलः नेपाली प्रतिनिधिमण्डलस्य नेतृत्वम् विधाय नेपाल वायुसेवायाः विमानेन गतरात्रौ जापान देशम् प्रति प्रस्थितवान् अस्ति। परराष्ट्र मन्त्रालयस्य सचिव अमृत बहादुर राई असूचयत्। गतरात्रौ त्रिभुवन अन्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे राष्ट्रपतये पौडेलाय उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः, प्रधानमन्त्री सुशीला कार्की, मन्त्रिणः, सुरक्षा निकायानाम् प्रमुखाः, सर्वकारस्य उच्च पदाधिकारिणः, नेपालस्य कृते जापान देशस्य राजदूतश्च प्रास्थापनिका विवादनम् अर्पितवन्तः। भ्रमणस्य अवसरे राष्ट्रपतिना पौडेलेन माघमासस्य विंशे दिवसे टोकियो वर्तिनी इम्पेरियल प्रासादे जापान देशस्य सम्राजा नारुहितो इत्यनेन सह शिष्टाचार मेलवार्ता करिष्यते। तस्मिन्नेव दिवसे राष्ट्रपतिना पौडेलेन सह जापान देशस्य प्रधानमन्त्री ताकाइची सानाय इत्यनया मेलवार्ता करिष्यते इति च परराष्ट्र मन्त्रालयेन ज्ञापितमस्ति। राष्ट्रपति पौडेलः एकोनविंशे दिवसे नेपाल जापान देशयो कौटनीतिक सम्बन्ध स्थापनायाः सप्ततितमस्य वार्षिकोत्सवस्य अवसरे जापान सर्वकारस्य पक्षत आयोक्ष्यमाणे विशेष स्वागत समारोहे सहभागी भविष्यति। भ्रमणस्य क्रमे राष्ट्रपति पौडेलः जापान देशीय व्यवसायिकानाम् उपवेशे च सहभागी भविष्यति। राष्ट्रपति पौडेलः जापान देशवर्तिना नेपाली दूतावासेन राष्ट्रपतेः सम्मान्य आयोक्ष्यमाणे स्वागत समारोहे च सहभागी भविष्यति इति च परराष्ट्र मन्त्रालयेन ज्ञापितमस्ति। भ्रमणं प्रपूर्य राष्ट्रपति पौडेलः अस्यैव माघमासस्य एकविंशे दिवसे स्वदेशं प्रत्यागन्ता। निर्वाचन आयोगेन प्रत्यक्ष निर्वाचनस्य कृते पञ्चविंशतेः जनपदानाम् 30 लक्षाणि मतपत्राणि मुद्रितानि सन्तीति ज्ञापितम् वर्तते। निर्वाचन आयोगे ह्य सम्भूते नियमित पत्रकार सम्मेलने आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई समानुपातिक निर्वाचन प्रणाल्याः कोटिद्वयस्य 8 लक्षाणाम् 30,000 च मतपत्राणाम् मुद्रण कार्यम् सम्पन्नमस्तीति असौ असूचयत्। प्रवक्ता भट्टराई मतदातृ शिक्षायै 10 लक्षाणाम् 98,000 शतद्वयस्य च निदर्शन मतपत्राणाम् मुद्रण कार्यम् सम्पन्नमस्तीति असूचयत्। निर्वाचन आयोगेन आचार संहितायाः उल्लंघन सम्बद्धानाम् 21 निवेदनानाम् प्राप्तेः पश्चात् राजनीतिक दलेभ्य जनेभ्यश्च स्पष्टीकरणम् स्पृष्टमासीत्। अधुनावधि 12 जनैः प्रत्युत्तरम् प्रदत्तमस्तीति असूचयत्। अवशिष्टेषु निवेदनेषु कार्यदलेन अध्ययनम् विधीयमानमस्तीति आयोगेन ज्ञापितम् वर्तते। आचार संहितानुगमनम् प्रभावकारी विधाय क्रियान्वयनस्य सुनिश्चिततायाः कृते 27 जनपदानाम् सहायक प्रमुख जनपदाधिकारिभ्य आर्थिकाद् अन्येषु विषयेषु प्रमुख कोष नियन्त्रकेभ्य आर्थिक विषयेषु च अनुगमनम् विधातुम् आचार संहितानुगमनाधिकृता नियुज्य सक्रियतापूर्वकम् कार्यम् विधीयमानमस्तीति निर्वाचन आयोगेन ज्ञापितम् वर्तते। सर्वकारेण ईरान देशे विद्यमानाः नेपाली नागरिकाः यथाशीघ्रम् स्वदेशम् प्रत्यागन्तुम् अनुरुद्धाः वर्तन्ते। अमेरिका देशस्य ईरान देशस्य च मध्ये द्वन्द्वस्य वर्धनानन्तरम् स्वकीय वेब सञ्जाले यात्रा परामर्श सम्बद्धाम् सूचनाम् प्रकाश्य ईरान देशम् प्रति गन्तुम् अभिलषन्ता जनाः अपि भ्रमणम् स्थगयितुम् अनुरुद्धाः वर्तन्ते। परराष्ट्र मन्त्रालयेन ईरान देशे विद्यमानेभ्य नागरिकेभ्य आकस्मिक रूपेण स्वदेशम् प्रति प्रत्यागमनाय स्वकीयानि परिचय प्रपत्राणि सज्जीकृत्य स्थापनीयानि इति च अनुरुद्धमस्ति। मन्त्रालयेन समन्वयाय नेपालवर्तिना दूतावासेन कतारदेशीय दूतावासेन च सह सम्पर्कम् स्थापयितुमपि अनुरुद्धम् अस्ति। नेपाल सर्वकारेण संयुक्त अरब इमिरेट्स देशीय सर्वकारस्य चतुःपञ्चाशत्तम राष्ट्रिय दिवसस्य अवसरे सप्तषष्ट्यधिक शतद्वयाय बन्दीजनेभ्य नेपालीभ्य विहितं क्षमा प्रदानं प्रति यूएई सर्वकारं प्रति कृतज्ञता व्यक्तास्ति। नेपाल सर्वकारेण क्षमादानमेतत् नेपाल संयुक्त अरब इमिरेट्स देशयोर्मध्ये विद्यमानानां मैत्री सद्भावना सौहार्दतानां प्रतीकस्य रूपेण गृहीतम् अस्तीति उक्त्वा यूएई सर्वकारस्य मानवीय प्रयासस्य अस्य विज्ञप्तिं प्रकाश्य प्रशंसा विहिता वर्तते। गृहमन्त्री ओम प्रकाश आर्यालः अनुसन्धातृ निकायैः विहितानाम् आपराधिक सम्पदः नियन्त्रणेन सम्बद्धानां निर्णयानां न्यायालयेन विहितस्य निर्णयस्य च अनुसारेण अधिगृहीतानां सम्पदां च एकीकृत विवरणस्य प्रणाली यथाशीघ्रं निर्मातुं निर्दिष्टवान् वर्तते। आपराधिक क्रिया जन्य सम्पद व्यवस्थापन विभागस्य अनुगमनस्य क्रमे पूर्वेद्युः गृहमन्त्रिणा आर्यालेन एवं निर्दिष्टम् वर्तते। अधिकार दुरूपयोगानुसन्धानायोगेन उदयपुर वज्रचूर्णोद्योगे सार्वजनिक सम्पद दुरूपयोगस्य आरोपे तात्कालिक महाप्रबन्धकेन सुरेन्द्र कुमार पौडेलेन सहितानाम् अष्टानां जनानां विरूद्धे न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन तात्कालिकस्य महाप्रबन्धकस्य पौडेलस्य नायब महाप्रबन्धक पदीयस्य महेश प्रसाद विरूद्धस्य च प्रसादस्य च विरूद्धे प्रतिजनं द्वादश कोटिभ्य चत्वारिंशतो लक्षेभ्यश्च अधिकानां रूप्यकाणां परस्पर अवैधानिक मेलनेन योजनाबद्ध रूपेण च दुरूपयोगं कृत्वा सार्वजनिक सम्पदः दुरूपयोगो विहितः उद्योगे च गभीरार्थिक क्षतिः प्रापिताश्चेति आरोपेषु ह्य काष्ठमण्डपवर्तिनि विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। एवमेव निमित्त महाप्रबन्धकेन नवलकिशोर साहेन सहितैः उत्पादन महाशाखाया प्रमुखेण संजय कुमार लालेन भण्डारण महाशाखाया प्रमुखेण महेश प्रसाद साहेन उत्पादन विभाग प्रमुखेण रविन्द्र चन्द्र पौडेलेन वज्रचूर्णोत्पादन विभाग प्रमुखेण हरिप्रसाद अधिकारिणा विक्रय विभाग प्रमुखेण रामबहादुर जीसी इत्यनेन च षट्चत्वारिंशत कोटीनां द्वापञ्चाशतो लक्षाणां च रूप्यकाणाम् अपचलनं विहितम् इत्यारोपे एतेषां जनानां विरूद्धे न्यायिक प्रकरणं पञ्जीकारितं वर्तते। नारायणघाट बुटवल मार्गखण्डस्य पूर्वखण्डे विद्यमानानां सर्वेषां सेतूनां निर्माणकार्यं सम्पन्नमस्ति। निर्माणकार्यं सम्पादितवत्सु चतुस्त्रिंशति सेतुषु यातायात साधनानि च सञ्चाल्यमानानि सन्तीति ज्ञापितं वर्तते इति समाचारः।